येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः तमश्चाज्ञानजम् भिन्नम् तस्मै पाणिनये नमः अस्मद्गुरुचरणारविन्दाभ्याम् नमः हरिः ओम्।
धन्यवादः भगिनी, सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र हल् सन्धिः। तस्मिन् विषये वयं बहु किमपि अतीतवन्तः, किन्तु सः विषयः बृहान् अस्ति इति कृत्वा तत्र मध्ये किञ्चित् काचित् अवधिः अस्माभिः स्वीकृता अस्ति। अवधिः नाम केवलम् एकः वर्गः एव तावदेव। अतः अद्य तत्र सम्भाषणसन्देशे तत्र बालमोदिनी इति यः भागः अस्ति, तस्मात् तत्र अक्टोबर् 2021 हा तत्र मार्गः अनुसरणीयः इति या कथा अस्ति तां पठामः। तदनन्तरं तत्र उष्ट्रः हर्म्यतले भवेत् कथम् इति तां कथामपि पठामः यदि समयः अस्ति चेत्। तर्हि अस्तु, तर्हि तत्र आरम्भं कुर्मः। तर्हि तत्र उषादिवते भगिनी आरम्भं करोति वा?
आं महोदय। मार्गः अनुसरणीयः। कदाचित् कस्यचित् महात्मनः प्रवचनकार्यक्रमः प्रवर्तमानः आसीत्। कार्यक्रमे बहवः मार्गं वहन्ति स्म कार्यक्रमे बहवः भागं वहन्ति स्म अहङ्कारद्वेषलोभमोहादीन् त्यक्त्वा सात्विकं जीवनं यापनीयम् इति सः जनान् उपदिशति स्म। तस्य उपदेशवचनेषु बहवः महतीं श्रद्धां प्रदर्शयन्ति स्म। अत
अस्तु अस्तु, एकमेकं पठामः तर्हि अग्रे तत्र। समीचीनं भगिनि, अग्रे शोभा भगिनि।
महोदय, अथ कदाचित् कश्चन श्रोता महात्मानाम् उपसर्य अपृच्छत्, महोदय भवतः प्रवचनं तु प्रतिदिनं श्रद्धया शृणोमि अहं, किन्तु ततः मयि कापि प्रगतिः तु न जाता, किमर्थम् एवम् इति। अग्रे पठनीयं
वा?
तदा महात्मा तम् अपृच्छत्, भवान् कुतः आगच्छति इति। इतः अनतिदूरे स्थितात् ग्रामात् आगच्छामि श्रीमन्, तेन श्रोता उक्तम्। तेन श्रोत्रा उक्तम्।
तेन श्रोत्रा उक्तम्। समीचीनम्, अस्तु अग्रे तत्र हर्षदा भगिनी अग्रे।
आम्, साधु, भवतः ग्रामः कथं प्राप्तुं शक्यः? महात्मना पृष्टम्, इतः गमनाय कश्चन मार्गः अस्ति, तम् अनुसृत्य पादाभ्याम् अश्वशकटेन वृषभशकटेन वा गमनेन मम ग्रामः प्राप्तुं शक्यः? अत्रैव उपविश्य भवतः ग्रामं प्राप्तुं शक्यः किम्? तत् कथं शक्यम्? ग्रामं प्राप्तुं यानादिकम् आश्रणीयं, पादाभ्यां वा गन्तव्यम्? ग्रामः कथं प्राप्तुं शक्यः इति विवरणस्य श्रवणात् किं भवद् ग्रामः प्राप्येत्? अग्रे पठामि वाम्?
प्राप्येत, प्राप्येत, समीचीनं,
प्राप्येत,
समीचीनं, धन्यवादः, धन्यवादः, तावदेव। अस्तु अग्रे उषा स्वामिनाथन् भगिनी अग्रे।
आं महोदय,
तत् श्रुत्वा
सः श्रोता हसन् अवदत्, तत् कथं सम्भवेत्? ग्रामः प्राप्तव्यः चेत् तत्सम्बन्धः मार्गः
सम्बद्धः
तत्सम्बद्धः मार्गः क्रमणीयः एव। मार्गस्य अनुसरणात् कृते ग्रामः कथमपि न प्राप्येत, एवमेव भवति जीवने प्रगतिप्राप्तिः अपि। यथा भवद्ग्रामं प्राप्तुं विभिन्नाः मार्गाः स्युः, तथा प्रगतिं प्राप्तुं प्रगतिं प्राप्तुमपि केचन मार्गाः भवितुम् अर्हन्ति. तेषु कोऽपि मार्गः अनुसृत्येत चेत् एव प्रगतिः तेषु कोऽपि मार्गः अनुसृत्येत चेत् एव प्रगतिः प्राप्येत. केवलेन उपदेशश्रवणेन न किमपि प्रयोजनम्. कश्चन मार्गः अनुसृयताम् मार्गानुगुणं फलं प्राप्येत. मार्गमेव अननुसृत्य प्रगतिप्राप्ति इच्छाकरणं न उचितम् इति बोधितवान् सः महात्मा.
अस्तु, समीचीनं. तर्हि तत्र नूतनतया तत्र निवेदिता भगिनी, नमस्कारः. कथां पठामः? अस्तु, तर्हि अग्रे इदानीं तत्र
नमो नमः.
नमस्कारः भगिनी. कथां पठन्तः स्मः, द्वितीया कथा, मार्गः अनुसरणीयः इति अटाच्मेण्ट् मध्ये अस्ति. सुजाता भगिनी नमस्कारः. अस्तु, तर्हि अग्रे इदानीं तत्र पङ्क्तिशः पठामः. तर्हि वेदा भगिनी आरम्भं करोति वा?
आम् महोदय.
कदाचित्
कस्यचित् महात्मनः प्रवचनकार्यक्रमः प्रवर्तमानः आसीत्. कस्यचित् महात्मनः कोऽपि महात्मनः इति वक्तुं शक्यते वा?
कस्यचित् महात्मनः.
अस्तु, महात्मनः प्रवचनकार्यक्रमः प्रवर्तमानः आसीत्. कदाचित् तस्य महात्मनस्य महात्मनः प्रवचनकार्यक्रमः प्रवर्तमानः आसीत् इत्युक्ते भूत्काले प्रवर्तमानः आसीत्. कार्यक्रमे बहवः भागं वहन्ति स्म वहन्ति इत्युक्ते अस्ति इति, सन्ति इति वा? सन्ति
भागं वहन्ति. भागं वहन्ति नाम तत्र ते अपि आगत्य
ओ
ते अपि शृण्वन्ति अथवा किमपि वदन्ति.
अस्तु अस्तु, भागम् इत्युक्ते पार्टिसिपेट्.
सत्यं, भागः वहन्ति.
कार्यक्रमे बहवः जनाः भागं वहन्ति. भागं वहन्ति एव. अहङ्कारद्वेषलोभमोहादीन् त्यक्त्वा सात्विकं जीवनं यापनीयम् इति सः जनान् उपदिशति स्म. कः जनाः? ये कार्यक्रमे ये जनाः भागं वहन्ति ते वदति वा? अहङ्कारद्वेषलोभ
तत्र भगिनि, तत्र अस्तु, तत्र क्रियापदं किमस्ति?
उपदिशति.
वचनं
उपदिशति स्म तत्र भविष्यकालत एव. भूत्काले परन्तु स्म इति
स्म इति त्यजतु, स्म इति त्यजतु. वचनं किम्? उपदिशति इति वचनं
एकवचनं.
तर्हि कर्तृपदस्य वचनं किम्?
एकवचनमेव.
तर्हि तत्र कर्तृपदं किम् अस्ति अस्मिन्?
सः
इत्युक्ते कः?
महात्मा.
तर्हि महात्मा उपदिशति स्म.
ओके,
कान् उपदिशति स्म?
जनान्.
तर्हि कः उपदिशति?
महात्मा जनान्
उपदिशति स्म. ये जनाः तत्र आसन् भागं वहन्ति स्म तान् जनान् सः उपदिशति स्म.
किम् उपदिशति इत्युक्ते अहङ्कार द्वेष लोभ मोहादीन्
मोहादीन् कर्मपदं त्यक्त्वा
सात्विकं जीवनं यापनीयम् इति.
यापनीयं यापनीयं किमर्थं नपुंसकलिङ्गे अस्ति?
प्राप्नुमः इति.
न न, यापनीयम् इति नपुंसकलिङ्गे अस्ति खलु?
आमां, जीवनं यापनीयम्.
हा उत्तमं भगिनि. हा जीवनं यापनीयं,
सात्विकं
जीवनं यापनीयं. जीवनमिति विशेष्यं, सात्विकं यापनीयं विशेषणं. समीचीनं. हा अग्रे.
तस्य उपदेशवचनेषु बहवः महतीं श्रद्धां प्रदर्शयन्ति स्म. तस्य उपदेशवचनेषु तत्र सप्तमी विभक्ति बहुवचने अस्ति. तस्य उपदेशवचनेषु बहवः जनाः इति जनाः महतीं श्रद्धां प्रदर्शयन्ति स्म. बहवः जनाः महतीं श्रद्धां दर्शयन्ति.
समीचीनं. तर्हि तत्र उपदेशवचनेषु इति अस्ति, तत्र वचन विभक्ति का तत्र?
सप्तमी बहुवचनं.
समीचीनं. किमर्थम्?
ओ किमर्थं
सप्तमी विभक्तेः कार्यं किम् अत्र?
सप्तमी उपदेशवचनेषु तत्र करेक्ट् करेक्ट्. तस्य किं वदामि, इन् दट् उपदेशवचनं
सत्यं सत्यं. हा किन्तु किमर्थम्? आङ्ग्लभाषायां सत्यं किन्तु
संस्कृत किं वदामि इति
किमर्थं
चिन्तयति.
सत्यमस्ति. सप्तमविभक्तेः एकः प्रयोगः अस्ति तत्र.
अधिकरण
नाम अत्र यत्र भावः अस्ति खलु.
ओ ओके, अस्तु अस्तु. आम् आम्, कारक
श्रद्धा, श्रद्धा अस्ति, विश्वासः अस्ति.
आम्
तत्र
सप्तमी.
हा कस्मिन् मम विश्वासः अस्ति, तस्मिन् मम विश्वासः अस्ति, तस्मिन् मम श्रद्धा अस्ति इति वदामः खलु. अतः एव तत्र कस्मिन् विषये श्रद्धा अस्ति, तेषां श्रद्धा अस्ति, तेषां श्रद्धा महात्मनः उपदेशवचनेषु तेषां श्रद्धा अस्ति.
अस्तु.
महती श्रद्धा, तेषां महती श्रद्धा महात्मनः उपदेशवचनेषु अस्ति इति अस्तु. समीचीनं भगिनि. हा उत्तमम् अस्तु. इदानीम् अग्रे. हा अस्तु अग्रे. तर्हि तत्र इदानीं तत्र पल्लवी भगिनी अग्रे पठति वा?
आं महोदय. अथ कदाचित् कश्चन श्रोता महात्मानम् उपसर्प्य अपृच्छत्, महोदय भवतः प्रवचनं तु प्रतिदिनं श्रद्धया शृणोमि अहम्. तर्हि महात्मनः प्रवचनकार्यः प्रवचनकार्यक्रमः प्रतिदिनम् आसीत्. तर्हि एकः श्रोता एकदा तम् अपृच्छत् तस्य समीपे गत्वा अपृच्छत् आम् आम् महोदय भवतः प्रवचनं तु प्रतिदिनं श्रद्धया शृणोमि अहं. सः महात्मनः प्रवचनं यत् प्रचलन् आसीत् तस्मिन् महात्मनस्य श्रोतुः श्रद्धा आसीत् इति सः उक्तवान्.
श्रोतुः मम श्रद्धा अस्ति इति.
आम् 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 तर्हि प्रतिदिनं सः श्रद्धया शृणोति. प्रवचने श्रद्धा आसीत् इति सः उक्तवान्. किन्तु ततः मयि कापि प्रगति तु न जाता. एतत् एतानि सिन्स् सो मेनि डेस् लैक् ऐ एम् लिस्निङ्ग्.
तर्हि तत्र अनेकानि दिनानि अतीतानि.
अनेकानि आम् अनेकानि दिनानि अतीतानि. तर्हि मयि कापि प्रगति न जाता. किमपि प्रवर्तनं न दृश्यते.
न दृश्यते मयि मयि
मयि
मम अहम् इति तस्य सप्तमी मयि कापि कापि प्रगतिः तु न जाता. तत्र न आगता न सञ्जाता. अपि तत्र ततः इति अस्ति. ततः इत्युक्ते कुतः
प्रवचनस्य
प्रवचनस्य श्रवणात्
श्रवणात्
तत्र ततः इति तत्र कारण नाम तस्मात् तस्मात् इति अर्थे तत्र तस्मात् कस्मात् तत्र प्रवचनश्रवणात् प्रवचनस्य श्रवणात् अथवा श्रवणेन मयि कापि प्रगति
न जाता.
किमर्थम्
एवम्
किमर्थम् एतद् किमर्थं तत्र प्रगतिः
न जाता.
यद् अहं तत्र प्रतिदिनं शृणोमि श्रद्धया शृणोमि किन्तु यदि तत्र प्रतिदिनं न शृणोमि तर्हि तत्र दोषः वर्तते. यदि श्रद्धया न शृणोमि दोषः वर्तते. किन्तु प्रतिदिनं शृणोमि श्रद्धया शृणोमि किन्तु प्रगतिः न सञ्जाता किमर्थम् इति सः पृच्छति.
तदा महात्मा तम् अपृच्छत् भवान् कुतः आगच्छति इति. तत् श्रुत्वा महात्मा श्रोतारम् अपृच्छत् सः अत्र प्रवचनस्य कृते कुतः आगच्छति प्रतिदिनम् इति सः पृष्टवान्. इतः अनतिदूरे स्थितात् ग्रामात् आगच्छामि श्रीमन् तेन श्रोता उक्तम्. तर्हि समीपमेव किमपि ग्रामः आसीत् ततः सः श्रोता आगतवान् आगच्छन्ति स्म
आगच्छति
स्म
आगच्छामि स्म इति सः वदति.
सः
तत्र तत्र श्रोता
उक्तम्
किमर्थम्
कर्मणि प्रयोगः अस्ति तेन श्रोता
तेन श्रोत्रा उक्तम् सः श्रोता तेन श्रोत्रा
न अवगम. सः श्रोता उक्तवान्
विभक्तिरूपम् अस्ति. सः
श्रोता उक्तवान्
उक्तवान् समीचीनं. सः श्रोता उक्तवान् अथवा कर्मणि प्रयोगे तेन श्रोत्रा उक्तम् उक्तं समीचीनम्. अस्तु धन्यवादः भगिनि. अस्तु अग्रे
अन्यत्रापि
अग्रे हर्षद भगिनि.
साधु भवतः ग्रामः कथं प्राप्तुं शक्यः महात्मना पृष्टं. महात्मा तम् अपृच्छत् एतत्तु साधुः किन्तु भवतः ग्रामं कथं प्राप्तुं शक्य अस्ति कथं भवान् ग्रामं गच्छति इति सः पृष्टवान्
महात्मा. भवान् कथं ग्रामं गच्छति न ग्रामः कथं प्राप्तुं शक्यते नाम यदि
भवान् भवान् ग्रामं कथं गच्छति इति सः पृष्टवान्.
तदपि नास्ति भगिनि नाम तत्र भवतः ग्रामम् अन्य कोऽपि यदि भवतः ग्रामं गन्तुम् इच्छति तदा सः तेन किं करणीयम्.
हा हा अन्य गन्तुं कोऽपि इच्छति चेत्
इच्छति चेत् मार्गः कः मार्गस्य विवरणं ददातु इति.
अस्तु अस्तु. इतः गमनाय कश्चन मार्गः अस्ति. इतः गमनाय कश्चन मार्गः
इतः नाम यत्र ते सन्ति ततः
इतः यत्र महात्मा प्रवचन ददाति ततः
गमनाय स्थलात्
तस्मात् स्थलात् पञ्चमी गमनाय कोऽपि एकः मार्गः अस्ति तम् अनुसृत्य पादाभ्याम् अश्वशकटेन वृषभशकटेन वा गमनेन मम ग्रामः प्राप्तुं शक्यः तं मार्गम् अनुसृत्य यदि कोऽपि तत् मार्गम् अनुसरति पादाभ्यां चलति वा अश्वशकटेन गच्छति वा वृषभशकटेन गच्छति तदा सः मम ग्रामं प्राप्तुं शक्नोति इति
शक्नोति उत्तमं शक्नोति समीचीनम्
अत्रैव उपविश्य भवतः ग्रामः प्राप्तुं शक्यः किम् महात्मा अग्रे पृच्छति यदि कोऽपि अत्र एव उपविशति तर्हि भवतः ग्रामं प्राप्तुं शक्यते वा
शक्नोति वा
भवतः शक्नोति वा तत् कथं शक्यं ग्रामं प्राप्तुं यानादिकम् आश्रयणीयं पादाभ्यां महोदय अद्य अहं पठितुं मां पठितुं किञ्चित्
अस्तु अस्तु अग्रे पठति वा इदानीम् अन्य कोऽपि पठति वा
न किमपि यः अहम् अनन्तरं पठामि महोदय
अस्तु अस्तु
चिन्तितमस्ति किञ्चित् नेत्रे किमपि अस्ति चेत्
अस्तु चिन्तमस्तु चिन्तमस्तु अग्रे पठतु चिन्तमस्तु अस्तु समीचीनं तर्हि तत्र अग्रे निवेदिता भगिनि
आम् आम् पठामि पठामि तत् कथं शक्यं ग्रामं प्राप्तुं यानादिकम् आश्रयणीयं पादाभ्यां वा गन्तव्यं महात्मा तं पृच्छति यदि तं अत्रैव उपविशति तदा त्वं ग्रामे गन्तुं शक्नोति वा
तव ग्रामं
गन्तुं शक्नोति वा तदा मनुष्यः वदति तत् कथं शक्यमस्ति यदा अहं ग्रामे गन्तुम् इच्छामि तदा
भगिनी भगिनी तत्र ग्रामे इति सप्तमी नास्ति ग्रामम् इति कर्म
ग्रामं सोरि सोरि गमगच्छ कृते द्वितीया विभक्ति अपेक्षा अस्ति यदि कोऽपि ग्रामं गन्तुं सोरि यदा अहं ग्रामं गन्तुम् इच्छामि तदा कोऽपि साधनम् आवश्यकमस्ति किमपि साधनम् आवश्यकमस्ति वा पादाभ्यां केवलम् अहं तत्र गन्तुं शक्यते
पादाभ्यां गन्तव्यं
तत्र गन्तुं शक्नोति ग्रामः कथं प्राप्तुं शक्यः इति विवरणस्य श्रवणात् किं भवत् ग्रामः प्राप्येत् इति विवरणस्य
नाम प्रथमतः
उपरि सः विवरणं ददाति यदि ग्रामं यदि ग्रामम् अनुसरणं कर्तुम् इच्छामि तदा पादाभ्याम् अश्वशकटेन वृषभशकटेन वा गमनेन अहं तत्र गन्तुं शक्यः
तदा यः कोऽपि इच्छति मम ग्रामं यः कोऽपि इच्छति गन्तुं सः तत्र मार्गः अस्ति अपि तत्र मार्गमनुसृत्य पादाभ्यां वा अश्वशकटेन वा वृषभशकटेन वा गन्तुं शक्नोति इति उक्तवान् सः श्रोतवान् इदानीं तत्र महात्मा तं पृष्टवान् अत्रैव उपविश्य गन्तुं शक्यः
केवलं विवरणं ददाति त्वं केवलं विवरणं ददाति तदा त्वं तत्र गन्तुं शक्नोति वा ग्रामं गन्तुं शक्नो
यदि
कोऽपि कोऽपि तत्र गन्तुं
केवलं विवरणं शृणोति तत्र कथं गन्तव्यम् इति विवरणं यदि कोऽपि शृणोति किं तेन तस्य विवरणस्य श्रवणेन एव सः तत्र अन्यत् किमपि न करोति किन्तु केवलं
विवरणं
हा विवरणस्य श्रवणेन एव तत्र ग्रामं प्राप्नोति वा इति
तत् श्रुत्वा सः श्रोता हसन् अवदत् तत् कथं सम्भवेत् महात्मा यत् अवदत् तत् श्रुत्वा श्रोता अहसत् अवदत् च तत् सम्भवं नास्ति ग्रामः प्राप्तव्यं चेत् तत्सम्बन्धः मार्गः क्रमणीय एव यदि त्वं ग्रामं गन्तुम् इच्छसि तदा कोऽपि मार्गस्य अनुसरणम् आवश्यकम्
तत्र मार्गस्य अनुसरणेन विना तत्र
कुत्रापि
प्राप्तिः न भवति
मार्गस्य अनुसरणात् ऋते ग्रामः कथमपि न प्राप्येत् ऋते विना
कथमपि न प्राप्येत
प्राप्येत
इति अस्ति
यदा त्वं मार्गस्य अनुसरणं करोषि तदा एव त्वं ग्रामं
प्राप्तुं
तदा कोऽपि ग्रामं गन्तुं शक्नोति
इति अस्ति समीचीनं भगिनि हा धन्यवादः अस्तु
धन्यवादः
समीचीनम् अस्तु इदानीम् अग्रे तत्र शोभा भगिनी अग्रे
आं महोदय एवमेव भवति जीवने प्रगतिप्राप्तिः अपि यथा भवद्ग्रामं प्राप्तुं विभिन्नाः मार्गाः स्युः तथा प्रगतिं प्राप्तुम् अपि केचन मार्गाः भवितुम् अर्हन्ति इदानीं सः महात्मा वदति यथा मार्गे चरणस्य आवश्यकता अस्ति ग्रामं प्राप्तुं कुत्रापि प्राप्तुं तथा एव जीवने अपि यदि प्रगतिम् इच्छामः प्रगतेः प्राप्तिम् इच्छामः तर्हि मार्गम् अनुसरणीयं भवति विभिन्नाः मार्गाः सन्ति प्रगतेः कृते तेषु एकं चित्वा अनुसरणीयं न केवलं मार्गस्य विवरणं श्रुत्वा तृप्तिं न प्राप्तव्यम् अनुसरणीयं भवति तथा अपि च किं वदति तेषु कोऽपि मार्गः अनुस्रियेत तत्र अनुस्रियेत इति विधिलिङ्गकारः स्युः अपि विधिलिङ्ग आसीत् चेदेव प्रगतिः प्राप्येत मार्गाः सन्ति तेषु यथा तत्र आध्यात्मिकविषये मार्गाः सन्ति इति जानीमः कर्ममार्गः वा ज्ञानमार्गः वा भक्तिमार्गः वा इत्यादयः तेषु यत् भवतः लाभाय भवति तत् चित्वा तस्मिन् मार्गे चलतु इति वदति ते अपि च किं तत्र तेषु कोऽपि मार्गः अनुस्रियेत कोऽपि मार्गः यत् यः कोऽपि मार्गः सम्यक् एव यत् भवतः लाभाय भवति अपि च प्रगतिं प्रति प्राप्यते तेन इति वक्तुं शक्नुमः वा भवतः प्राप्तेः कारणं भवति सः मार्गः उचितः एव इति केवलेन उपदेशश्रवणेन न किमपि प्रयोजनम् यथा भवान् पूर्वम् उक्तवान् अहं प्रतिदिनम् आगच्छामि श्रद्धया शृणोमि अपि प्रायशः सर्वं कण्ठस्थीकरणमपि कृतवान् आसीत् किन्तु केवलं श्रवणेन किमपि लाभं न भवति कोऽपि लाभः न भवति यतोहि आचरणं करणीयं श्रुत्वा अतः उपदेशश्रवणेन श्रवणात् मननं भवेत् निधिध्यासनं भवेत् तत्सर्वं भवति चेत् तदा प्रगतिः भवति इति उक्तवान् न तु केवलम् उपदेशस्य उपदेशं श्रुत्वा किमपि प्रयोजनं न भवति कश्चन मार्गः अनुस्रियताम् इति तत्र अनुस्रियताम् इति लोट्लकारे भवति इदानीं सृ इति धातुः अनु अनु इति तत्र अनुचरणे इति भवति मार्गानुगुणं फलं प्राप्येत तत्र भिन्नाः मार्गाः भिन्नरीत्या फलं ददति यतोहि फलं समानमेव किन्तु केषुचित् मार्गेषु किञ्चित् समयः अधिकः भवेत् केषुचित् मार्गेषु शीघ्रमेव प्राप्तिः भवेत् किन्तु मार्गानुगुणं फलं प्राप्येत फलस्य प्राप्तिः अपि भवति मार्गमेव अननुसृत्य प्रगतिप्राप्तिच्छाकरणम् इत्युक्ते प्रगतिप्राप्ति इच्छाकरणं न उचितं तत्र कस्यापि मार्गे चलतु तदनन्तरं पश्यतु किमपि लाभः भवति वा इति मार्गमेव अननुसृत्य मार्गे अनुसरणमेव न भवति चेत् यत् उपदेशस्य अनुसरणम् आचरणमेव न भवति चेत् तस्य प्रगतेः इच्छा प्रगतेः प्राप्तेः इच्छायाः आशा अस्ति आशा न इच्छा एव तत्र आशा इति होप् इति भवति अस्तु आशा अस्ति चेत् तद् उचितं न भवति तस्मै श्रमः अपि अपेक्षितः इति इति बोधितवान् सः महात्मा श्रवणं भवेत् श्रद्धा भवेत् किन्तु आचरणं न भवति चेत् कोऽपि लाभः नास्ति इति
समीचीनम् अस्तु उत्तममस्ति तर्हि तत्र अस्तु समीचीनमस्ति तर्हि लघुकथा किन्तु समीचीना अस्ति अस्तु तर्हि इदानीं तत्र अग्रे अपि अन्या कथा अस्ति तामपि पठामः समीचीनं तत्र अस्यां कथायां कोऽपि प्रश्नः अस्ति वा तत्र कथायाम् अस्तु
महोदय तत्र आरम्भे सात्विकं जीवनं यापनीयम् इति तत्र यापनीयम् इत्यस्य जीवनम् इति तत्र जीवनम् इत्यस्य सात्विकम् इति विशेषणं भवति यापनीयम् इति अन्यर्प्रत्ययः तत्र तर्हि भवान् उक्तवान् तस्य अपि विशेषणं भवति इति सात्विकं
विशेषण यतोहि तत्र एषः ग्रन्थः पठनीयः इति तर्हि पुल्लिङ्गे अस्ति यतोहि पठनीयः इति तत्र विशेषणत्वेन भवति खलु
कृत् प्रत्यय विशेषणरूपेण एव उपयुज्यते न
जीवनम् इति विशेषणं भवति सात्विकम् इति अपि भवति वा
न न जीवनम् इति विशेष्यं सात्विकम् इति विशेषणं यापनीयमपि विशेषणं
विशेषणं वा
विशेष प्रत्यय
नाम तत्र जीवनं कथं भवेत् जीवनं सात्विकं
जानामि भगिनि तत्र किन्तु जीवनं यापनीयम् इति नपुंसकलिङ्गे तत्र अन्वयः भवति तथा वा महोदय
आं भगिनि नाम तत्र यापनीयम् अस्ति तत्र नाम तत्र यापनीयम् अनियर् प्रत्यय यत्र अस्ति तत्र कीदृशम् इति एव भवति खलु
नाम एते सर्वे प्रत्ययाः विशेष
ग्रन्थः ग्रन्थः अस्ति चेत् पठनीयः ग्रन्थः एषः पठितव्यः ग्रन्थः
कर्म एव उक्ता भवति इत्यनेन
प्रत्ययेन कर्म उक्ता भवति इति वा
नाम तत्र नाम तत्र यत्र अनियर् अस्ति तत्र कर्मणि प्रयोगः एव भवति साधारणतया खलु नाम
कर्मणि एव
मया मया एषः ग्रन्थः पठनीयः
पठनीयः इति
मया पठनीयः इति तत्र मया इति त्यक्त्वा केवलं कर्मणि तत्र केवलं पठनीयः अस्ति चेत् एषः ग्रन्थः पठनीयः अथवा पठितव्यः
सत्यं सत्यं
तत्र मया पठितव्यः वा भवता पठितव्यः वा भवत्या पठितव्यः वा इति तत्र अन्यकर्म कर्तृपरं भवेत् किन्तु पठितव्यः अथवा पठनीयः इति एव भवति खलु
इत्युक्ते तत्र विदा भगिनी उक्तवती तत्र सर्वे कृत्प्रत्ययाः विशेषणाः एव इति खलु तत्र किञ्चित् भ्रमः अभवत् इदानीं सम्यक् महोदय
अस्तु भगिनि अस्तु
विशेषणाः एव इति
विशेषणानि
धन्यवादः
अस्तु समीचीनं विशेषणानि अस्तु तर्हि अग्रे सरामः तर्हि तत्र सुजाता भगिनी नमस्कारः भवती अस्तु न शृणोति अथवा अस्तु तर्हि अग्रे इदानीं तत्र अस्तु इदानीं तत्र उषास्वामिनः भगिनि आरम्भं करोति वा इदानीं
उष्यः हर्म्यतले भवेत् कथम् पूर्वं कश्चित् नृपः आसीत् सः प्रजावत्सलः न्यायप्रियश्च गीतनृत्यादिविलासेषु अरुचिमान् सः मुक्तिसुखमेव प्रत्यहं काङ्क्षति स्म मुक्तिसुखं कथं प्राप्येत आत्मस्वरूपं कथम् अवाप्यते इत्येवं चिन्तयति स्म सः सन्न्यासिनः धर्म उपदेशकादीन् च पृच्छति स्म मोक्षः कथं भवेत् मोक्षमार्गः कथं प्राप्येत इति सर्वे अपि धर्मप्रचारकाः सन्न्यासिनः च स्वमति अनुगुणम् उत्तरम् अपृच्छन् किन्तु नृपः तेषां कथनतः
आयच्छत्
ओके आयच्छत् सर्वेपि धर्मप्रचारकाः सन्न्यासिनः च स्वमत्यनुगुणम् उत्तरम् अयच्छन् किन्तु नृपः तेषां कथनतः सन्तुष्टमनस्कः न जातः
अस्तु अग्रे तत्र उषा दिवते भगिनि अग्रे
आं महोदय केनचित् सन्न्यासिना अयं व्यतिकरः कथमपि जातः राजा सम्यक् बोधनीयः इति निश्चित्य तन्निशायाम् एव द्वादशवादने राजभवनं प्रति गतः। सः सन्न्यासी हर्ण्यतलम् आरूढः। मध्यरात्रसमये अपि निद्राम् अलभमानः नृपः शय्यायां चिन्ताक्रान्तः सन् शयितः आसीत्। हर्ण्यतले सहसा एव कस्यचित् पदध्वनिं श्रुत्वा अस्मिन् समये कः आगतः स्यात्, कश्चित् चोरः एव स्यात् अयम् इति विचिन्त्य उत्थाय सः झटिति तत्र समागतः। तेन उच्चैः पृष्टं, भोः कः भवान्, किमर्थम् अत्र आगतं भवता इति।
हा समीचीनं भगिनि, अग्रे धन्यवादः भगिनि। अग्रे तत्र वेदा भगिनि अग्रे
एकनिमिषं ओके। कुत्र कुत्र स्थगितवती
भवान्? उक्तं
तदा सन्न्यासिना उक्तं, राजन् अद्य मम उष्ट्रः कुत्रचित् विनष्टः अस्ति, तस्य अन्वेषणाय अहमत्र समागतः अस्मि इति उच्चैः हसता नृपेण उक्तम्। उच्चैः हसता नृपेण उक्तं, का एषा मूर्खता तत्र भवतः, किं हर्म्यतले उष्ट्रः कदाचिदपि केनापि प्राप्येत। सहासं सन्न्यासिना अपि प्रत्युत्तरितं, भोः मोक्षः प्रासादे उपविशता केनचित् यदि प्राप्येत तर्हि हर्म्यतले उष्ट्रः कथं न प्राप्येत। यदि अहं मूर्खः तर्हि भवानपि मूर्खशिरोमणिः एव। एतस्य श्रवणात् राज्ञा तस्य कथनस्य आशयः अवगतः। प्रातःकाले एव सः प्रासादं परित्यज्य सन्न्यासं गृहीतवान्। हर्म्यतले इत्युक्ते किम्?
हर्म्यतले तत्र चित्रे न दत्तं, किन्तु तत्र भवनमस्ति,
टाप् फ्लोर् अर्र
भवनस्य उपरि उपरि
उपरि भागः
उपरि भागे तत्र बाल्कनि एतादृशम्
अस्तु
हर्म्यतले यत्र तत्र सोपानेन प्रायशः तत्र साधारणतया न गन्तुं शक्नुमः, नाम तत्र उष्ट्रः तत्र कदाचित् न गच्छति, तादृशं स्थलम् अस्तु। इदानीं तत्र अस्तु इदानीं तत्र आरम्भे तत्र हर्षदा भगिनी इदानीं वक्तुं शक्नोति वा अथवा अन्य कोऽपि कुर्यात्?
आमां महोदय, क्षम्यताम्। पूर्वं कश्चित् नृपः आसीत्, सः प्रजावत्सलः न्यायप्रियश्च। पुरा एकः नृपः आसीत्, सः प्रजावत्सल आसीत्, न्यायप्रिय अपि आसीत्। गीतनृत्यादिविलासेषु अरुचिमान् सः, महोदय अत्र अरुचिमानः भवेत् वा? सः इत्यस्य विशेषणं
न अरुचिमान् तत्र मत् प्रत्ययः खलु तत्र
बुद्धिमान् चिन्तितवती शानच् भवेत् वा रोचते? अस्तु अस्तु अरुचिमान् सः
रुचिमत् रुचिमत् अरुचि
रुचिमत् मतु प्रत्यय
सत्यं प्रत्यय
सः मुक्तिसुखमेव प्रत्यहं काङ्क्षति स्म।
प्रत्यहं नाम प्रतिदिनं सर्वदा।
तस्य रुचि विलासेषु न आसीत्। सः मुक्ति प्राप्तुम् इच्छति,
नाम सः राजा आसीत् खलु, तर्हि तत्र राजा नृपः अस्ति चेत् साधारणतया तत्र गीतनृत्यादिविलासेषु एव तत्र तेषां रुचिः भवति.
आम् आम्,
किन्तु तस्य रुचिः तादृशं नास्ति, तादृशी नास्ति,
प्राप्तुम् इच्छति
काङ्क्षति स्म. समीचीनं.
मुक्तिसुखं कथं प्राप्येत, आत्मस्वरूपं कथम् आवाप्यते इत्येवं चिन्तयति स्म सः. सदैव सः चिन्तां करोति, अहं मुक्ति कथं प्राप्स्यामि, मम आत्मस्वरूपं कथम् अस्ति इति अहं कथं जानामि इति. सः संन्यासिनः धर्मोपदेशकादीन् च पृच्छति स्म मोक्षः कथं भवेत्, मोक्षमार्गः कथं प्राप्येत् इति. सः सर्वेषां पृच्छति, सः सर्वेषां पृच्छति कि अहं मोक्षं प्राप्तुम् इच्छामि, अहं किं करोमि, मोक्षमार्गे कथं गच्छामि इति सः सर्वेषां पृच्छति स्म.
अस्तु, समीचीनम्. अस्तु, इदानीम् अग्रे तत्र समीचीनं भगिनि. अस्तु, अग्रे तत्र
धन्यवादः.
उषा अधिवता भगिनी, भवती तत्र प्रथमा कथा तस्यां तत्र भवती तत्र विवरणं न दत्तवती, अतः इदानीं किञ्चित् करोतु भगिनी अत्र.
आं महोदय, सः संन्यासिनः धर्मोपदेशकार्यम्
अग्रे अग्रे सर्वेपि
सर्वेपि धर्मप्रचारकाः सन्न्यासिनः च स्वमत्यनुगुणम् उत्तरम् अयच्छन्. सर्वेपि धर्मप्रचारकाः सन्न्यासिनः च मत्यनुगुणम् इत्युक्ते किं महोदय? मत्यनुगुणम्
स्वमत्यनुगुणम्
उत्तरम् अयच्छन्, किन्तु नृपः तेषां कथनतः सन्तुष्टमनस्कः न जातः. सर्वेपि धर्मप्रचारकाः सन्न्यासिनः च स्व उत्तरम् अयच्छन्, किम् उत्तरम् अयच्छन् इत्युक्ते
नाम प्रश्नः कः तत्र?
मोक्षमार्गः कः?
मोक्षः कथं भवेत्, मोक्षमार्गः कथम् अहं प्राप्नोमि इति तस्य
तस्य प्रश्नः आसीत्. समीचीनं. समीचीनं, तस्य प्रश्नः तत्र मोक्षविषये एव आसीत्. मोक्षः कथं भवति
इति सः
मोक्षमार्गः कथं, मोक्षमार्गं कथम् अहं प्राप्तुं शक्नोमि तत्र इति सः पृष्टवान्. सः कान् पृच्छति?
सन्न्यासिनः धर्मोपदेशकादीन् च पृच्छति. आत्मस्वरूपं धर्मप्रचारकाः सन्न्यासिनः च स्वमत्यनुगुणम् उत्तरम् अयच्छन्, किन्तु नृपः तेषां कथनतः
तत्र भगिनी तत्र प्रायश तत्र हर्षदा भगिन्याः तत्र प्रायशः उत्तरदायित्वं भवेत्, किन्तु भवती एव वदतु तत्र. तत्र सः सन्न्यासिनः धर्मोपदेशकाधीन् च पृच्छति स्म इति अस्ति खलु? धर्मोपदेशकाधीन् इति तत्र विभक्ति का तत्र?
कर्मपदं महोदय.
समीचीनं, तर्हि विभक्ति
द्वितीयविभक्ति.
द्वितीयविभक्ति, समीचीनम्. अपि सन्न्यासिनः इति
प्रथमविभक्ति,
तदनन्तरं च इति अस्ति खलु?
सन्न्यासिनः बहुवचने, प्रथमविभक्ति बहुवचने.
तत्र सन्न्यासी तत्र गुणी इति गुणिवत् खलु?
गुणिनः
गुणी इति वदतु एकवारं. गुणी
गुणिनः
द्वितीय द्वितीय द्वितीय
गुणिनं गुणिनौ गुणिनः द्वितीय बहुवचने
हा बहुवचने द्वितीया अस्ति किमर्थं तत्र कथं जानीमः पृच्छति इति अस्ति खलु भगिनि पृच्छति पृच्छति इति भवती उक्तवती खलु कर्मपदं पृच्छति इति क्रियापदस्य कर्मपदं खलु
कान् पृच्छति
उषा दिवते भगिनि समीचीनं खलु पृच्छति इति क्रियापदमस्ति तस्य कर्मपदमस्ति धर्मोपदेशकाधीन् इति अपि सन्यासिनः अपि कर्मपदमेव कथं जानीमः यतोहि च इति अस्ति तत्र
उपदेशं करोति सर्वे
च अस्ति चेत् समूहः अस्ति समूहे अनेके सदस्याः स्युः किन्तु तेषां समानविभक्तित्व विभक्ति भवेत् खलु हा तर्हि सन्यासिनः अपि द्वितीयविभक्ति अस्तु अग्रे इदानीं सर्वेपि इदानीं
सर्वेपि धर्मप्रचारकाः सन्यासिनः तत्रापि द्वितीयविभक्ति
न न इदानीं प्रथमविभक्ति
सन्यासिनः सर्वेपि
अत्र क्रियापदं किमस्ति
स्वः क्रियापदं सर्वे अपि धर्मप्रचारकाः सन्यासिनः च स्वमत्यनुगुणम् उत्तरम् अयच्छन्
क्रियापदं किमस्ति
अयच्छन्
अयच्छन् अयच्छन् अस्ति अयच्छन् इति क्रियापदमस्ति बहुवचने खलु
अयच्छन्
अयच्छन् कः अयच्छ अथवा के अयच्छन्
सन्यासिनः
तर्हि सन्यासिनः एव कर्तृपदं
सः अयच्छन्
सः इति न न बहुवचने अस्ति
मत्यनुगुणम् उत्तरम् अयच्छन् इत्युक्ते
एकनिमिष तत्र इदानीम् अवगतं खलु भवत्या तत्र सन्यासिनः इति कर्तृपदम्
सन्यासी
अयच्छत् सन्यासिनः अयच्छन् खलु
आम् महोदय
हा अयच्छत् नाम दत्तवान् दत्तवन्तः उत्तरं दत्तवन्तः किम् उत्तरं दत्तवन्तः स्वमत्यनुगुणम् नाम तत्र सर्वे तत्र धर्मोपदेशकाः सन्ति धर्मप्रचारकाः सन्ति तेषां धर्मानुसारम् उत्तरं दत्तवन्तः यदि कर्मयोगी मार्गम् अनुसरन्ति चेत् ते वदन्ति धर्मम् तत्र कर्ममार्गम् अनुसरतु कर्मयोगमार्गेण तत्र मोक्षः
प्राप्नोति इति
हा इति अतः तत्र विभिन्नधर्माः सन्ति धर्मप्रचारकः अथवा धर्म उपदेशकाः स्वस्य तत्र तेषां तत्र स्वस्य प्रत्येकस्य यः धर्मः अस्ति तस्य धर्मस्य अनुसरणात् तत्र मार्गः एषः एव मार्गः इति उत्तरं ददाति प्रत्येकः
महोदय अत्र अत्र मत्यानुगुणं यथामतिम् अस्ति वा तस्य अर्थ
स्वमति समीचीनं
यथामति मतलब मति स्वमतिम्
अनुसृत्य सत्यं भगिनि स्वमति नाम तेषां चिन्तनम् इति मन्ये तत्र मति अस्ति खलु समीचीनं
किन्तु नृपः तेषां कथनतः सन्तुष्टमनस्कः न जातः परन्तु नृपः तेषाम् उत्तरं श्रुत्वा न सन्तोषं प्राप्तवान्
कथनतः नाम कथनात् पञ्चमी कथनात्
सन्तुष्टः न
अभवत्
अभवत्
सन्तुष्टमनस्कः न जातः नाम तस्य मनसि सन्तोषः न उद्भूतः नाम सन्तोषस्य उत्पत्तिः न अभवत् सन्तुष्टमनस्कः सः न जातः अस्तु अग्रे
केनचित् सन्न्यासिना अयं व्यतिकरः कथमपि जातः
ज्ञातः
ज्ञातः केनचित् सन्न्यासिना अयं व्यतिकरः व्यतिकरः कथमपि ज्ञातः
राजा विचित्र विचित्रमस्ति खलु एतद् एतादृशी स्थितिः तत्र सर्वदा न भवति खलु सर्वेषाम् एताद् नाम तत्र सः मोक्षं प्राप्तुम् इच्छति किन्तु तत्र किं सः अनेकान् पृच्छति किन्तु किमपि न अभवत् खलु
आं महोदय
हा अतः स्थितिः एतादृशी अस्ति इति के कोऽपि सन्न्यासी ज्ञातवान्
राजा सम्यक् बोधनीयः इति निश्चित्य
व्यतिकरशब्दस्य अर्थः किम्
व्यतिकरः तत्र किम् एतादृशी तत्र स्थितिः अथवा तत्र सम्यक् असम्यक् स्थितिः नाम तत्र एकनिमिष तत्र कथं वदामः तत्र विचित्रस्थितिः इति तादृशी अस्ति इति मन्ये
अधिक अति अधिक कृ कृधातु
व्यसनम् इति अर्थं
दृष्टवान् बिहेविङ्ग् इन् इन् अप्रोप्रियेट् मेनर् लैक् दट्
तादृशी भगिनी नाम तत्र यथा भवेत् तथा नास्ति इति यथा चिन्तयामः तथा नास्ति अत्र सः मोक्षमार्गमिच्छति किन्तु तथा न भवति तत्र अतः तत्र अनेके जनाः तत्र उत्तरं तत्र दत्तवन्तः किन्तु सः राजा तु तत्र सन्तुष्टः न अभवत् इति
धन्यवादः
अस्तु अग्रे भगिनि
राजा सम्यक् बोधनीयः इति निश्चित्य तन्निशायाम् एव द्वादशवादने राजभवनं प्रति गतः सः सन्न्यासी हर्म्यतलम् आरूढः
अस्मिन् वाक्ये बहु किमपि अस्ति किञ्चित् सोपानेन गच्छामः
सन्न्यासी हर्म्यतलम् आरूढः सः सन्न्यासी हर्म्यतलम् आरूढः
तर्हि भागं पठामः भगिनि तत्र प्रथमस्य सः निश्चित्य सः किं निश्चित्य
न महोदय राजा सम्यक् बोधनीयः इति निश्चित्य
तर्हि सः किं निश्चितवान्
राजा सम्यक् बोधनीयम् इति निश्चितवान्
तत्र राजा इति तत्र विभक्ति का तत्र
राजा राट् अस्ति वा महोदय राज्ञः अस्ति
बोधनीयः इति विभक्ति का
बोधनीयः बोधनीयं सम्यक् बोधनीयः
सरलमस्ति भगिनि बहु किमपि चिन्तनं मास्तु
अस्तु महोदय
बोधनीयः इति
अन्य
सत्यं विभक्ति
प्रथमः
प्रथमः एव तावदेव प्रथमः राजा अपि प्रथमः खलु
अत्र राजा सम्यक् बोधनीयः इति निश्चित्य
नाम तत्र केनापि राजा सम्यक् बोधनीयः हा केनापि अपि सः केन इति मया एव इति सः चिन्तयति
तदेव
केनापि बोधनीयः अस्ति राजा किन्तु केनापि एतावत् न कृतम् अस्तु मया एव बोधनीयः एषः राजः इति राजा इति सः चिन्तयति
सः एव
इति निश्चितवान् मया एव राजा सम्यक् बोधनीयः इति सः निश्चित्य
लेप्रत्य तत्र तन्निशायाम् एव स्लीप् महोदय तत्र
न न भगिनि इदानीं तत्र एव तत्र सन्धिकार्यं तत्
तन्निशायां किमस्ति महोदय तत् निशायां महोदय
निशायां
रात्रि
सन्धिः
दकार अस्ति तद्
निशायां तन् तन्निशायां
पठितवन्तः महोदय
अनुनास्ति
तदेव अस्ति समीचीनं तन्निशायाम्
एव द्वादशवादने राजभवन
निशायाम् एव
इत्युक्ते तद् नैट्
इत्युक्ते रात्रि
रात्रिसमये
तस्यां रात्रौ एव
द्वादशवादने 12 o'clock राजभवनं
नाम मध्यरात्रौ
मध्यरात्रौ राजभवनं प्रति सः गतवान्
राजभवनं प्रति सः गतः नाम गतवान् समीचीनं गतः गतवान् तदनन्तरं सः किं कृतवान्
सः सन्न्यासी हर्म्यतलम् आरूढः
नाम हर्म्यतलम् इति भागः भवनस्य प्रासादस्य उपरिभागः उपरिभागं प्राप्तवान् आरूढवान् आरूढः तत्र प्रत्ययः तत्र अर्थद्वयमस्ति खलु तत्र नाम साधारणतया कर्मणि अर्थे भवति मया पठितं पुस्तकं पठितः ग्रन्थः प्रत्ययः किन्तु गमनार्थकधातूनां तत्र कर्त्री अपि भवति अतः एव तत्र गतः इति कर्त्री अर्थे आरूढः तत्र अपि कर्तृते तत्र आरूढवान् तत्र आरूढवान् इति अस्ति धनमे किन्तु तत्र उपरि प्राप्तवान् हर्म्यतलं प्राप्तवान् सः राजभवनस्य हर्म्यतलं प्राप्तवान् उपरि भागं प्राप्तवान् इति अस्ति समीचीनं भगिनि अस्तु इदानीम् अग्रे अन्य कोऽपि कुर्यात् तर्हि तत्र
महोदय
सुजाता भगिनि भवती करोति वा इदानीं
महोदय
समीचीनं करोतु भगिनि
मध्यरात्रिसमये अपि निद्रां
अलभमानः नृपः
मध्यरात्रिसमये अपि निद्राम् अलभमानः नृपः शय्यायां चिन्ताक्रान्तः सन् शयितः आसीत् मध्यरात्रिसमये
अनेकाः क्रियाः तत्र सन्ति अस्तु
मध्यरात्रिसमये अपि निद्राम् अलभमानः नृपः शय्यां
तर्हि नृपः कीदृशः आसीत्
अलभमानः नृपः
अलभमानः अलभते अलभमानः तत्र शानस्पृच्छ निद्राम् अलभमानः नृपः
नृपः
नाम नृपः निद्रां न लभते
निद्रां
न लब्धवान् कदा मध्यरात्रसमये अपि सः निद्रां न लब्धवान् तदापि तत्र निद्रा न आगता नृपस्य निद्रा न आगता तदापि कृतवान् शयायां
चिन्ताक्रान्तः सन् शयता चिन्ताक्रान्तः
सन् चिन्ताक्रान्तः सन् पुनः तत्र शत्रन्तं शत्रन्तरूपं सन् अस् ततः सन्
चयितः चिन्ताक्रान्तः
चिन्ताक्रान्तः चिन्तायां मग्नः चिन्तामग्नः आसीत् अपि
चयितवान्
हा तत्र तत्र किमस्ति शय्यायाम् अस्ति शयितः तत्र तव तु रूपं किमस्ति कोऽपि जानाति वा
चयितवान्
इति वा अस्तु
निद्रां
निद्रां न कृतवान् यतोहि केवलं तत्र शयितः आसीत् न कृतवान् किन्तु शयितः आसीत् अस्तु अग्रे
कर्मतले सहसा एव कस्यचित् पदध्वनिं श्रुत्वा अस्मिन् समये कः आगतः स्यात् सो हि उनका पद आवाज श्रुत्वा
हर्म्यतले हर्म्यतले नाम तत्र उत्तरभागे तत्र प्रकोष्ठस्य प्रकोष्ठस्य प्रायशः बहिः तत्र तत्र तस्मिन् भागे तत्र सहसा एव नाम तत्र श्रूयते तत्र कोऽपि तत्र ध्वनिं कृत्वा एव तत्र आगतवान् अस्ति नाम एषः तत्र तूष्णीं कृत्वा स्थित्वा न आगतवान् खलु तत् सः अतः तत्र सहसा एव आगतवान् तत्र सहसा एव कस्यचित्
पदध्वनिं
पदस्य ध्वनिं श्रुत्वा राजा श्रुतवान् अपि किं चिन्तितवान्
अस्मिन् समये कः आगतः स्यात् अत्र अस्मिन् समये
मध्यरात्रौ
आगतवान् इति सूचितवान्
कः आगतवान् भवेत् इति सः चिन्तितवान्
किञ्चित् चोरः एव स्यात्
कश्चित्
चोरः एव स्यात् अयम् इति विचिन्त्य उत्थाय सः झटिति तत्र समागतः कचित् चोरः एव आगतः इति चिन्त्य उत्थाय झटिति तत्र गतवान्
चिन्तितवान् अस्तु तत्र चोरः एव भवेत् अस्मिन् समये अन्य कोऽपि न भवितुम् अर्हति प्रायः चोरः एव अत्र आगतवान् अस्ति अस्तु अहमपि तत्र गच्छामि पश्यामि किम् अस्ति इति सः तत्र
गतवान् तेन उच्चैः पृष्टं भो कः भवान् उच्चस्वरेण भो कः भवान् भवान् कः इति अपृच्छत्
अपि
किमर्थम् अत्र आगतं भवता किमर्थं
अत्र किमर्थं भवान् अत्र आगतवान्
आगतवान्
इति सः पृच्छति समीचीनं अस्तु अग्रे
धन्य तदा सन्यासिना उक्तं राजन् अद्य मम ऊष्ट्रः कुत्रचित् विनष्टः अस्ति मार्गः अस्ति. तदा सन्यासी उक्तवान् राजन् तस्य वृष्टः विनष्टः अभवत् इति. अद्य उत्सः प्राब्लम्
न न उष्ट्रः उष्ट्रः इति
उष्ट्रः
प्राणी अस्ति. तत्र चित्रं पश्यतु उष्ट्रः कः इति जानाति तर्हि चित्रमस्ति खलु भगिनि उष्ट्रः तत्र चित्रमस्ति खलु उपरि
उन्ति महोदय उष्ट्रः
उष्ट्रः तदा सन्यासिना उक्तं तर्हि कर्मणि प्रयोगः उक्तं तदा सन्यासी उक्तवान् किम् उक्तवान्
उष्ट्रः कुत्रचित् विनष्टः
मम
उष्ट्रः गतवती
न तत्र न जानामि कुत्र अस्ति इति अहं न जानामि.
तस्य अन्वेषणाय अहम् अत्र समागतः अस्मि. अन्वेषणार्थम् अत्र समागतः अत्र
नाम
तस्य ऊष्टः अन्वेषणार्थम्
अन्वेषणार्थम् अत्र भवेत् वा इति चिन्तयन् अहम् अत्र आगतवान्. उष्ट्रः कुत्र अस्ति इति न जानामि प्रायशः अत्र अस्ति वा इति अहं चिन्तयामि अत्र आगतवान् अस्मि.
उच्चैः हस्ता हस्तरूपेण उक्तं का
तत्र कर्त्री वदतु अत्र उच्चैः हसता नृपेण उक्तम् इति
नृपेण कर्तृपदं
न न तत्र कर्मणि प्रयोगः अस्ति कर्तृप्रयोगरूपेण वदतु तत्र
नृपः उच्चैः हसितवान्
हसन् उक्तवान् तावदेव समीचीनं. नृपः हसन् उच्चैः उक्तवान् किम् उक्तवान्
एषा मूर्खता तत्र भवतः का एषा मूर्खता तत्र भवतः किं हर्म्यतले उष्ट्रः कदाचिदपि केनापि प्राप्येत एषः मूर्खताभावेन मूर्खता भवतः एषा मूर्खता तत्र भवतः
हा भवतः एषा मूर्खता नाम भवान् मूर्खः अस्ति अस्ति हा भवान् मूर्खः अस्ति इति अस्तु.
अग्निस्थले उष्ट्रः कदाचित् केनापि प्राप्येत अग्नितले कदापि उष्ट्रः
तत्र प्राप्तुं शक्नोति शक्नुमः वा इति सः पृच्छति नाम तत्र असम्भवः अस्ति तत्र कदापि न आगच्छति इति अस्ति. अस्तु अस्तु समीचीनम् अस्तु अग्रे तत्र समीचीनं
भवति.
अस्तु भगिनि, समीचीनम्, अस्तु, चिन्ता मास्तु भगिनि, अस्तु. अग्रे तत्र तत्र पल्लवी भगिनी अग्रे पठति वा?
आं महोदय. सहासं संन्यासिना अपि प्रत्युत्तरम् भोः मोक्षः प्रासादे उपविशता केनचित् यत् क्षम्यतां प्रत्युत्तरितं भोः मोक्षः प्रासादे उपविशता केनचित् यदि प्राप्येत् तर्हि हर्म्यतले उष्ट्रः कथं न प्राप्येत. तर्हि सहासं हास्यसहितं
हास्यं नास्ति, हसः हासं न हस, हासं हसन् इति तत्र हसति.
न अवगतं महोदय.
हास्यम् इति नास्ति, केवलं हसति, हसति इति अर्थः इति मन्ये.
आमाम् अहं हास्यं सहितम् इति नास्ति
वा? समीचीनम्.
संन्यासी तं नृपं प्रत्युत्तरं दत्तवान् भोः मोक्षः प्रासादे उपविशता केनचित् यदि प्राप्येत तर्हि अर्मत्यत् अरे अस्तु. तर्हि सः उक्तवान् यदि भवान् स्वस्य प्रकोष्ठे स्थित्वा एव, प्रासादे स्थित्वा एव मोक्षस्य अन्वेषणं करोति तर्हि अहमपि उष्ट्रस्य अन्वेषणं हर्म्यतले कर्तुं शक्नोमि. तर्हि केनचित् यदि प्राप्यते, तर्हि कोऽपि उष्ट्रः क्षम्यतां कोऽपि प्रासादे स्थित्वा मोक्षः प्राप्तुं शक्नोति तर्हि कोऽपि हर्म्यतले अपि उष्ट्रं प्राप्तुं शक्नोति. यदि अहं मूर्खः तर्हि भवान् अपि मूर्खशिरोमणिः एव. यदि अहम् एतत् कार्यं कृत्वा मूर्खम् इति स्पष्टं तर्हि भवान् तु नृपः अस्ति, तर्हि मूर्खशिरोमणिः इति भवतः एतादृश भवतः कार्य
इति. समीचीनं. तत्र भगिनि तत्र मोक्षः प्रासादे उपविशता केनचित् यदि प्राप्येत, तत्र उपविशता केनचित् इति तत्र विभक्ति का? तत्र
तृतीया उपविशता.
प्रथमरूपं वदतु.
उपविशन्.
यदि कोऽपि प्रासादे उपविशन्
उपविशन्
मोक्षं प्राप्येत, प्राप्नोति
क्षत्रियप्रत्ययः.
उपविशन् प्राप्नोति तर्हि हर्म्यत्र उष्ट्रः अपि प्राप्तुं शक्नोति इति. समीचीनम्. अस्तु अग्रे.
एतस्य श्रवणात् राज्ञा तस्य कथनस्य आशयः अवगतः. तत् श्रुत्वा राजा
संन्यासिनः
वचनं किं यत् आसीत् तस्य आशयः कः आसीत् तत् सः
अवगतवान्.
प्रातःकाले एव सः प्रासादं परित्यज्य संन्यासं गृहीतवान्. अग्रिमदिने क्षम्यतां, सः तु तत् निशायामेव द्वादशवादने तर्हि तद्दिवसः प्रातःकाले सः नृपः स्वस्य प्रासादं त्यक्त्वा संन्यासं
संन्यासमार्गम्
स्वीकृतवान्,
मार्गस्य अनुसरणं कर्तुम्
आरब्धवान्
इति अस्ति. अस्तु, समीचीनम्. धन्यवादः.
एका शङ्का अस्ति महोदय, प्रथमपरिच्छेदे प्रत्यहं इति प्रति अहनि 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 प्रत्यहम् इति
सत्यं भगिनि तत्र अहर्निशम् इति तत्र तत्र दिनम् इति प्रत्यहं प्रतिदिनम् इति मन्ये
आम् तर्हि अहनि अहनि यदि वयं स्वीकुर्मः तर्हि अहं मकार तत्र कथम् आगतवान् अहं तत् न जाने
ज्ञातवान् तत् न जानामि भगिनि तत् अन्य कोऽपि अन्य कापि जानाति वा तत्र
कुत्र कुत्र महोदय
प्रत्यहम् इति प्रथमे परिच्छेदे अस्ति प्रत्यहं कङ्क्षति स्म इति प्रत्यहं नाम प्रतिदिनम् इति मन्ये किन्तु
यथा वयं दिनं 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 प्रतिदिनम् इति तर्हि अहनि अहनि प्रत्य प्रति अहः इति प्रथमा एकवचनमस्ति
सत्यं भगिनि सत्यं सत्यम् अहः अहः तदनन्तरं निशं तत्र अहर्निशम् इति भवति तत्र किन्तु तत्र
मकार
किन्तु तत्र अहं प्रत्यहम् भगिनि तत्र अस्तु अस्तु न न न जानामि भगिनि तत्र प्रायशः किं तत्र यत्र कालस्य सङ्केतः भवति वाक्ये तत्र कालस्य तत्र द्वितीयविभक्ति भवति इति तादृशनियमः वा इति अस्ति किन्तु केवलं संशयः
तर्हि द्वितीया अपि अहः अहनि अहनि इति अस्ति
अस्तु अस्तु अतः तत्र सम्यक्तया न जानामि न जानामि उत्तमप्रश्नः किन्तु उत्तरं न जानामि अन्य कोऽपि जानाति वा तत्र निवेदितभगिनी किमपि उक्तवती वा
यस्य मनसि मोक्षस्य इच्छा अस्ति जिसके मन में मोक्ष की इच्छा है क्या वो चोर वगैरह के बारे में सोचेगा मतलब जिसके मन में मोक्ष की इच्छा है उसका मन शांत होना बहुत जरूरी है तो वह मतलब चोर धन आदि के बारे में उसके मन में सोच भी तो ना होनी चाहिए
सत्यम सत्यम किंतु राजा तु तादृशः न कृतवान् खलु
तस्य वर्तनं विपरीतम्
आसक्ति आसीत् अतः प्रासादं परित्यज्य
इदानीम् अवगच्छामि नाम तत्र मध्यरात्रौ यदा कोऽपि आगच्छति तदा तस्मिन् विषये भवती चिन्तयति अस्तु अस्तु चोरः भवेत् इति सः चिन्तयति इति वा अस्तु 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 इदानीम् अवगच्छामि आमां सत्यं सत्यं वदतु भगिनि
तत्र प्रत्यहम् इति अव्ययपदं महोदय अहः अहः प्रति इति
अहः अहः प्रति अस्तु
प्रतिदिनं
प्रतिदिनम्
अव्ययीभावसमासः अस्ति खलु
न जानामि
अव्ययस्य निर्माणे वा
अव्ययीभावसमासः
ओ अस्तु अस्तु प्रायशः अग्रे आगच्छति समासविषये अस्तु भगिनि समीचीनं
दिनं दिनं प्रति दिनं दिनं प्रति प्रतिदिनं तथैव अस्ति इति प्राप्स्यामि डे बै डे
महोदय अव्ययीभावसमासे सामासिक पदं नपुंसकलिङ्गे अस्ति खलु
अत्र नपुंसकलिङ्गे इव अस्ति प्रत्यहम् इति
एकवचने एकवचनम् अस्ति तथा नपुंसकलिङ्गम् अस्ति
अस्तु भगिनि अस्तु
प्रथमं पदं
तथैव
पूर्वपदम् अव्ययम् अस्ति अव्ययभावसमासे
अस्तु अस्तु तर्हि प्रति इति अस्ति
समस्तपदं नपुंसकलिङ्गे एकवचने अस्ति
ओ अस्तु भगिनि अस्तु समीचीनं अस्तु भगिनि धन्यवादः ओ
धन्यवादः
धन्यवादः भगिनि अस्तु तत्र शुभदा भगिनी अपि अस्ति नमस्कारः भगिनि न दृष्टवान् अस्तु
नमस्कारः महोदय
नमस्कारः
अनन्तरम् आगतवती
अस्तु अस्तु भगिनि चिन्ता मास्तु भगिनि, तत्र
मम इण्टर्नेट् कनेक्षन् अपि सम्यक् नासीत्, अहम् आगतवती पुनः ऐ वास् थ्रोन् औट्,
भग्नः जातः, अस्तु
बहिः गतः, पुनः आगतवती.
अस्तु भगिनि, हा किन्तु कथा द्वयं पठितवन्तः अद्य.
आमाम् अहं श्रुतवती पूर्णा कथा.
अस्तु भगिनि, अस्तु, तत्र केवलम् अद्य कथां पठितवन्तः, अग्रिमे वर्गे पुनः तत्र सन्धिः इति एव भवति.
आं महोदय.
हा अस्तु, तर्हि हा प्रश्नः तत्र अग्रिमे सप्ताहे वर्गः भवेत् अथवा न इति किं चिन्तनं? सर्वे आगच्छन्ति चेत् वर्गः भवति, अतः केवलं वदन्तु.
किमर्थं न भवेत् महोदय? किमस्ति अग्रिमे सप्ताहे? क्रिस्मस्. ओ
हा, तर्हि यदि सर्वे आगन्तुं शक्नुवन्ति वर्गः वर्गं कुर्मः, तर्हि वर्गः भवेत् खलु?
भवेत् महोदय.
अस्तु
महोदय.
अस्तु, हा
क्या अगली बार भी हम कोई कथा पढ़ सकते हैं?
नहीं.
अस्तु भगिनि, हां
टॉपिक से बाहर चले जाएंगे फिर.
नहीं, कथा में संधि करेंगे.
अच्छा, संधि वाला कोई कथा.
यदि यदि कापि प्राप्नोति, अहं किञ्चित् अन्वेषणं कृतवान्, किन्तु केवलं तत्र कथाद्वयमेव प्राप्तवान्. कथा सम्यक् आसीत् इति कृत्वा अहं स्वीकृतवान्, किन्तु तत्र यदि कापि जानाति तत्र नाम सन्धियुक्तकथा अस्ति चेत् सूचयतु, पठामः.
मम अस्माकं पुस्तके एव अस्ति महोदय.
हा वर्तते, वर्तते, अग्रे वर्तते, हा तदपि अस्ति, किन्तु अस्तु तदपि कर्तुं शक्नुमः. किन्तु अस्तु तत् कुर्मः, किन्तु सरला कथा अपि यदि भवति चेत् तामपि पठितुं शक्नुमः. अतः पश्यामः किं कथं भवति, किन्तु मध्ये यदि कथा कथां कापि प्राप्नोति चेत् कृपया प्रेषयतु.
आम्
अस्तु, तर्हि तर्हि तत्र अस्तु तत्र हा पल्लवी भगिनी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा, समापयामः.
आम्, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. धन्यवादः.
धन्यवादः,
धन्यवादः, नमस्कारः.
धन्यवादः,
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 धन्यवादः महोदय, नमस्कारः.
नमस्कारः.
We have lot of people in my home, Maudaya, so I won't be able to come.
Then Astu Bhagini, Astu, Astu, Astu Bhagini. Atatra, so, Kim Bhanu Vasare, Nyaya Varge? Satapi,
Va? Satapi.
Astu.
From Saturday on, I am getting it.
Astu, Astu Bhagini. Chintam, Astu. Chintam, Astu Bhagini. Astu Bhagini, Namaskara.
Namaskara.